अस्तीतमधिमन्तरमस्ति प्रजननम् कृतम् एताम् विश्वत्रीमभराग्निम् मन्थामपूर्वधा अरण्योर्निहीतो जातवेदा गर्भाजि वसुधीतो गर्भिणीषु इदेदीभैर्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः उत्तानायामवभराजि कित्वान् सद्यः प्रवीताभिरणम् जजान अरुषस्तु पौरुष तस्य वा जयिलायास्पुत्रो भजुने जनिष्ठ इलायास्त्वापते भयम् नाभा पृथिव्याधि जातवेदो निधि मह्यग्ने हव्यायवोढवे मन्थदानरः कविमद्वयन्तम् प्रचेतसमृतम् सुप्रतीकम् यज्ञस्य केतुम् प्रथमम् पुरस्तादग्निम् न रोजनयता सुसेवम् यदि मन्थन्ति बाहुभिर्विरोचते सौरवाद्य ऋषोवनेष्वा चित्रो न यावन्नश्विनोरनिवृतः परिवृणत्यस्मदस्तृणादहन् जातो अग्निरोचते च कीर्तानो भाजी विप्रः कविशस्तः सुदानोः यम् देवासकीर्ज्यम् विश्वविदम् हव्यवाहमदधुरध्वरेषु सीदहोदस्वो लोके च कृत्वा साधया यज्ञम् सुकृतस्य यो नौ देवावीर्देवान् हविषाय दास्यग्ने बृहद्यजमानेव योधाः शृणोत धूमम् मृषणम् सखायो श्रेधन्तयित नवाचमच्छ अयमग्निः प्रेतनाशात् सुवीरोजेन देवासो असहन्तदस्यून् अयम् तेजो निर्ऋत्विजोयतो जातो अरोजथाः सञ्जानन्नग्नासीदासानो वर्धया गिराः अनूनपादुच्यते गर्भ आसुरो नरासंसो भवति यद्विजायते मातरिश्वायदमीमीत मातरिवातस्य सर्गो अभवत्सरीमणि सुनिर्मथा निर्मथितः सुनिधा निहितः कविः अग्ने स्वध्वराकेणुदेवान् देवयते यज अजीजनन्नमृतम् मत्यासो श्रेमाणम् तरणिम् वेलुजम्भम् दशस्वसारो अग्रिमस्य नीतिः पुमांसम् जातमभिसंरभन्ते सप्तहो दासनकात रोचत मातुरुपस्थेयतसो चतुधनि अनिमेषति सुरनो दिवे दिवे यतसूरस्य जठरादजायत अमित्रायुधो मरुतामिव प्रजा प्रथमजा ब्रह्मणो विश्वविद्विदुः युम्नवद्ब्रह्म कुशिकासयेरि रजकाय गोतमे अग्निम् समीधिरे यदद्यत्वा प्रजति यज्ञे अस्मिन् होतश्च गित्वो व्रीडीमहेह ध्रुवमाया ध्रुवमुदासमिष्टाः प्रजानन् विद्वा उपायायि सोमम्।